एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा संघीय संसदः द्वयोः सदनयोः सर्वकारस्य आगामिनः आर्थिकवर्षस्य नीति कार्यक्रमान् आधृत्य विमर्शनम् प्रारब्धमस्ति प्रतिनिधिसभायाः ह्यस्तनोपवेशे नीति कार्यक्रमम् आधृत्य विमृश्यताम् इति निगद्य प्रधानमन्त्रिणा केपी शर्मा ओलिना प्रस्तावः प्रस्तुतः आसीत् विमर्शने भागं गृह्णन् नेकपा माओवादी केन्द्रस्य अध्यक्षः पुष्पकमल दाहाल प्रचण्डः सर्वकारस्य नीति कार्यक्रमः देशस्य यथार्थावस्थाम् एकीकृत्य आनीताः न सन्ति इति अगदत् अध्यक्षः प्रचण्डः नीति कार्यक्रमः औपचारिकः एव वर्तन्ते इति आरोपयन् नीति कार्यक्रमः जनतायाः राष्ट्रस्य च आवश्यकतां पूरयितुम् असमर्थाः सन्ति इति अगदत् अध्यक्षः प्रचण्डः नीति कार्यक्रमेषु पुनर्विचारस्य आवश्यकतां प्रादर्शयन् व्यावहारिकम् उत्पादनमूलकञ्च कार्यक्रमम् आनेतुं सर्वकारम् अनुरुद्धवान् नीति कार्यक्रमाणां विभिन्नेषु सूत्रेषु सप्तत्रिंशत् संख्याताः संशोधनस्य सूचनाः सम्प्राप्ताः सन्तीति सभामुखः देवराज घिमिरे असूचयत् विमर्शने जनार्दन शर्मा वर्षमान पुन सुदन किराती शक्तिबहादुर बस्नेत डाक्टर अमरेश कुमार सिंह अमनलाल मोदी माधव सापकोटा हितराज पाण्डे प्रभृतयः संशोधनकर्तारः सांसदः नीति कार्यक्रमेषु संविधानस्य मर्म समाहितं नास्ति इति उक्तवन्तः सांसदैः विकासव्ययम् वर्धयितुम् देशम् आर्थिकरूपेण समृद्धम् विधातुम् जनानाम् समस्याः समाधातुम् कृषिसेचन विद्युत् प्रभृति क्षेत्रेषु प्रभावपूर्णाम् योजनाम् आनेतुम् च बलम् दत्तवन्तः तत्पूर्वम् प्रतिनिधिसभायाः उपवेशे सभामुखः घिमिरे भारतस्य ओडिशा राज्यस्य विश्वविद्यालये अध्ययनरता छात्रा मृतावस्थायाम् प्राप्तेति विषयम् अनुसन्धातुम् सर्वकारम् निर्दिष्टवान् उपवेशस्य आकस्मिक समये सांसदः ओडिशा राज्यस्य विश्वविद्यालये नेपालस्य छात्रायाः मृत्योः घटनायाः विषये निष्पक्षम् अनुसन्धातुं याचनां विहितवन्तः राष्ट्रियसभायाः स्थनोपवेशे आगामिनः आर्थिकवर्षस्य कृते नेपाल सर्वकारस्य प्रस्तावितान् नीति कार्यक्रमान् आधृत्य विमर्शनम् प्रारब्धमस्ति विमर्शने सहभागिनः सत्तापक्षीय सांसदाः नीति कार्यक्रमैः सर्वान् पक्षान् समाविश्य स्वच्छस्य गुणस्तरीयस्य च पेयजलस्य सुनिश्चिततायै निर्धारिता नीतिः समुचिता अस्ति तथैव च महिलानां विरुद्धे जायमानासु हिंसादि गतिविधिषु अवलम्बिता नीतिः जलवायु परिवर्तनस्य जनतया सोढव्यानां समस्यानां च विषये अन्ताराष्ट्रिय स्तरस्य ध्यानाकर्षणाय निर्धारिता नीतिश्च समुचिते स्तः इति अगदन् प्रतिपक्षिदलस्य सांसदः नीति कार्यक्रमैः नेपाली जनतायाः स्वप्नः पूरयितुं न शक्यते समाजवादोन्मुखार्थिक सामाजिक रूपान्तरणस्य विषयाः समाविष्टाश्च न सन्ति इति उदैरयन् विमर्शने सांसदः आर्थिक गतिशीलतायै भ्रष्टाचारस्य नियन्त्रणाय च निर्धारितायाः नीतेः प्रभावकारि क्रियान्वयनं विधातव्यम् सर्वकारेण निश्चितं कृषकैः प्राप्तव्यं न्यूनतमं मूल्यं न प्राप्तञ्च वर्तते इत्यतः कृषकैः उचितमूल्यस्य प्राप्तेः व्यवस्था विधातव्येति सांसदः बलं प्रादुः प्रधानमन्त्रिणः केपी शर्मा ओलिनः नेपाली कांग्रेस दलस्य सभापतेः शेरबहादुर देउवाभिदस्य च मध्ये ह्य मेलवार्ता सम्भूता अस्ति सिंहप्रसादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये सम्भूते विमर्शने पश्चात्तन राजनीतिक विषयेषु अन्येषु सामयिक विषयेषु च विमृष्टमासीदिति ज्ञापितं वर्तते उपप्रधानार्थमन्त्रिणा विष्णुप्रसाद पौडेलेन नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देउवाभिदेन सह आगामिनः आर्थिकवर्षस्य आयव्ययकस्य विषये विमृष्टमस्ति ह्य बुढानीलकण्ठवर्तिनी देउवा निवासी उपप्रधानार्थमन्त्रिणा पौडेलेन नेपाली कांग्रेस दलस्य सभापतिना देउवाभिदेन सह आयव्ययकस्य विषये विमृष्टम् आसीत् शिक्षा विज्ञान प्रविधि मन्त्रिणा रघुजी पन्तेन भारतस्य ओडिशा राज्यस्य किट विश्वविद्यालये अध्ययनरतायाः छात्रायाः प्रिशा शाह इत्यस्याः रहस्यमय मृत्योः घटनायाः परराष्ट्र मन्त्रालयस्य माध्यमेन अनुसन्धानं जायमानमस्ति इति सूचितं वर्तते संसद शिक्षा स्वास्थ्य सूचना प्रविधि समिते ह्यस्तनोपवेशे मन्त्री पन्त किट विश्वविद्यालय अध्ययनाय अनुमते ग्रहणेन विना गतानां विद्यार्थिनां संख्या विपुलमात्रायां वर्तते इत्यतः अत्र अध्ययनरतानां विद्यार्थिनां तथ्यांकान् ज्ञातुं सम्बद्धाधिकारिणश्च निर्दिष्टाः सन्तीति उपवेशम् अज्ञापयत्। तदवसरे मन्त्री पन्तः घटनायाः सत्यतथ्य अन्विष्य दोषिणः दण्डयितुं सर्वकारेण प्रयासः करिष्यते इति प्रतिबद्धतां व्यक्तवान्। प्रतिनिधिसभायाः शिक्षा स्वास्थ्य सूचना प्रविधि समितेः ह्यस्तनोपवेशेन विद्यालय शिक्षा विधेयकम् आधृत्य विमर्शनं विधाय प्रतिवेदनं प्रस्तोतुं संघटितायाः उपसमितेः समयावधिः 10 दिनानि वर्धयितुं निर्णीतमस्ति। उपवेशे उपसमितेः संयोजकः छविलाल विश्वकर्मा विश्वविद्यालय शिक्षा विधेयकम् आधृत्य 35 दिवसेष् 41 उपवेशाः उपविष्टाः। विमर्शनं निष्कर्षे प्रापय्य च प्रतिवेदनं निर्मातुं 10 दिनानां समयावधिं प्रदातुं याचनां विहितवान् आसीत्। उपवेशे सांसदः देवेन्द्र पौडिलः विद्याभट्टराय दीपा शर्मा कालूराम राय इत्याद्यः सांसदः विद्यालय शिक्षा विधेयकं समाहूय पूर्णमस्तित्यतः यथाशीघ्रं समित्या पारितीकरणीयमित्यत्र बलं दत्तवन्तः। स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेलः भाषते सर्वकारीय चिकित्सालयेषु स्वास्थ्य सेवा सुरक्षण कार्यक्रमं अवरोद्धुम् अधिकारो नास्ति। चितवन जनपदे ह्य पत्रकारै सह स्वास्थ्य मन्त्री पौडेलः स्वास्थ्य सुरक्षण कार्यक्रमस्य अवरोधकर्तृणां चिकित्सालयानां पञ्जीकरणस्य नवीकरणं न करिष्यते इति अगदत्। स्वास्थ्य मन्त्री पौडेलः सर्वकारेण स्वास्थ्य सुरक्षण कार्यक्रमं उच्च प्राथमिकतायां स्थापितोऽस्तीत्यतः विभिन्नानां संघ संस्थानां माध्यमेन सर्वकारेण प्रदत्तानां स्वास्थ्य सुरक्षण सौविध्यानां एकीकृत प्रणाल्यां सञ्चालनम् आवश्यकमस्ति इति अभाषत। प्रतिवर्षं वैशाख शुक्ल नवम्यां तिथौ समायोज्यमानः राष्ट्रे विभूतेः मातुः सीतायाः उत्पत्ति दिवसः अद्य देवीं सीतां प्रति श्रद्धा भक्ति प्रकटन पुरस्सरं पूजाराधनं विधाय आयोज्यमानो वर्तते। पुरा त्रेतायुगे मिथिला देशस्य राज्ञा राजर्षि जनकेन विपुलं यज्ञं विधाय क्षेत्रस्य कर्षणस्य क्रमे सीता देव्यः उत्पत्ति बभूव इति कथा रामायण प्रभृतिषु धर्मग्रन्थेषु पुराणेषु च वर्णिता अस्ति। भगवतः विष्णुः षष्ठावतारस्य रूपेण अयोध्यायाः राज्ञः दशरथस्य पुत्रस्य श्रीरामस्य रूपेण अवताराय निश्चयनानन्तरं लक्ष्मीदेव्याः सीतायाः रूपेण अवतारो बभूव इति वर्णनं विभिन्न ग्रन्थेषु विहितमस्तीति धर्मशास्त्रविद् प्राध्यापकः डॉ रामचन्द्र गौतमः वदति। सीतादेवी इह जगति सत्यवती पतिव्रता आदर्श नारी चेत्यादि रूपेण सम्मानिता वर्तते। सीता जयन्ती अद्य आराश्रम राम जानकी मन्दिरेषु विशेष पूजाराधने विधाय समायोज्यमाना अस्ति। अवसरेऽस्मिन् जनकपुरधाम्नि जानकी मन्दिरे विशेष मेलापकञ्च आयोजितमस्ति यत्र देश विदेशानां पारे लक्षशः जनाः सहभागिनः जायमानः सन्ति। अवसरेऽस्मिन् अद्य मधेशप्रदेश सर्वकारेण सार्वजनिकावकाशः प्रदत्त वर्तते इति समाचारः।